श्रीगणेशाय नमः श्रीमद्भागवतमहापुराणम् अथ मङ्गलाचरणः जन्माद्यस्य यतोऽन्वयादितरतश्च चार्थेष्वभिज्ञस्वरार्तिनि ब्रह्मरुदायादिकवये मुह्यन्ति यत्सूरयः तेजोवारिमृदाय यथा विनिमयो यत्र त्रिसर्गो मृषा धाम्नास्मेन सदा निरस्तकुहकम् सत्यं परं धीमहि धर्मः प्रोज्झितकैतवोऽत्र परमो निर्मत्सराणां सतां वेद्यौ वास्तवमत्र वस्तु शिवदन् तापत्रयोन्मूलनम् श्रीमद्भागवते महामुनिकृते क्युवापरैरीश्वरः सद्योरुद्यवरुध्यतेऽत्र कृतिभिः शुश्रूषुभिस्तत्क्षणात् निगमकल्पतरुर्गलितं फलं शुकमुखादमृतद्रवसंयुतं पिबत भागवतं रसमालयं मुहुरहो रसिका भुवि भावुका